अथ द्वादश ज्योतिर्लिङ्गस्मरणम् सौराष्ट्रे सोमनाथम् च श्रीशैले मल्लिकार्जुनम् उज्जयिन्याम् महाकालम् ओङ्कारम् ममलेश्वरम् परल्याम् वैद्यनाथम् च डाकिन्याम् भीमशङ्करम् सेतुबन्धे तु रामेशम् नागेशम् दारुकावने वाराणस्याम् तु विश्वेशम् त्र्यम्बकम् गौतमीतटे हिमालये तु केदारम् घुष्मेशम् च शिवालये एतानि ज्योतिर्लिङ्गानि सायम् प्रातः पठेन्नरः सप्त जन्म कृतम् पापम् स्मरणेन विनश्यति इति द्वादश ज्योतिर्लिङ्गस्मरणम् समाप्तम्।